इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य नवदेहल्यां भारतस्य आध्यात्मिक नैतिक नेत्रोः श्रीनारायण गुरु महात्मा गान्धी इत्येतयोः ऐतिहासिक संवादस्य शतवार्षिकोत्सवस्य उद्घाटनं करिष्यति। पञ्चविंशत्युत्तर नवदशशततम वर्षस्य मार्च मासस्य द्वादशदिनांके शिवगिरी मठस्य समीपे महात्मा गान्धी वर्यस्य यात्रायाः समये ऐतिहासिकः संवादः अभवत्। संवादेऽस्मिन् वैकोम सत्याग्रहः, धर्मपरिवर्तनम्, अहिंसा, अस्पृश्यतायाः निर्मूलनम्, मोक्षस्य प्राप्तिः, शोषितानाम् उत्थानम् च केन्द्रीकृताः विषयाः आसन्। दोहानगरस्य भारतीय दूतावासः कतरदेशस्य भारतीय समुदायम् वर्तमानस्थितिम् दृष्ट्वा अवधानेन गृहान्तरे च स्थातुम् प्रार्थयत्। एकस्मिन् जनसंचार माध्यमेन भारतीय दूतावासः जनान् शान्तं स्थातुं कतर अधिकारिभिः प्रदत्तानि स्थानीय वार्तायाः निर्देशस्य मार्गदर्शनं च अनुसरणं कर्तुम् आदिष्टवान्। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अघोषयत् यत् ईरान देशः इज़राइल देशश्च पूर्णमनसा युद्धविरामं स्वीकृतवन्तः, यत् आगामीषु होरासु प्रवर्तयिष्यते इति। कतारदेशे अमेरिकादेशस्य वायुसेनायाः उपरि ईरानस्य क्षेपण आक्रमणस्य किञ्चित् कालानन्तरं गतरात्रौ एषा घोषणा कृता। एकस्मिन् ट्रुथ सोशियल जनसञ्चार पटले ट्रम्प वर्यः अवदत् यत् उभयोर्देशयोः अन्तिम अभियानस्य समाप्तेः अनन्तरं युद्धविरामः प्रवर्तयिष्यते। वक्तव्यस्य अनुसारं युद्धविरामः चरणबद्धरूपेण प्रवर्तयिष्यते। ईरान इज़राइल देशयोर्मध्ये संघर्षः नैरन्तर्येण प्रचलन्नस्ति। यूटर्स इत्यनुसारं येरूशलम नगरं भयाक्लान्तमासीत् यतः तस्योपरि प्रक्षेपणास्त्राणि दृष्टानि, सुदूरं च विस्फोटाः अभवन्। तदनन्तरं इज़राइल सैन्येन मध्य दक्षिण इज़राइल देशे रेड अलर्ट इति संचेतना ध्वनिः प्रसारिता। ईरान देशस्य परमाणु सौकर्येषु अमेरिकायाः आक्रमणस्य प्रत्यक्ष प्रतिकार रूपेण विश्वस्य महत्वपूर्णतमेषु तैल वायु नौवहन मार्गेषु अन्यतमस्य होर्मुज़ जलसन्धिं बन्धयितुं प्रस्तावः ईरान देशस्य संसदेन सर्वसम्मत्या अनुमोदितः, परन्तु अन्तिमोपक्रमे ईरान इत्यस्य सर्वोच्च राष्ट्रिय सुरक्षा परिषदः अनुमोदनम् अपेक्षते। चीनदेशः ईरान इज़राइल देशयोः शत्रुतां शमयितुम् आह्वानम् अकरोत्। अमेरिकादेशस्य सैन्याधिकारिणः सम्पूर्णे देशे सैन्यसमूहान् अत्यधिकजागरूकतायां स्थापयन्तः सन्ति। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन ईरान देशे शासनपरिवर्तनस्य सम्भावनेति विषये संकेतितम्। ईरान देशस्य विदेशमन्त्री अव्वास अराग्ची इत्येषः रशिया देशस्य शीर्षनेतृत्वेन सह उच्चस्तरीय संवादस्य रशिया देशस्य राजधानीं सम्प्राप्तोऽस्ति। ईरान देशस्य दीर्घकालिक मित्र राष्ट्र रूपेण अस्मिन् क्षेत्रे महत्वपूर्ण शक्ति रूपेण च रशिया देशः अस्मिन् गहनतर संकटे संभाव्य मध्यस्थः इति मन्यते। भारत देशः ईरान इज़राइल देशयोर्मध्ये वर्धमान संघर्षे ईरान इज़राइल देशाभ्याम भारतीय नागरिकान् प्रत्यावर्तयितुम् ऑपरेशन सिंधु इत्यस्यान्तर्गतं बृहन्मात्रायां निर्वासन प्रयासं प्रचालयति। टेस्ट क्रिकेट क्रीडायां लीड्स नगरस्य हेडसली नगरे एंडरसन तेंदुलकर ट्रॉफी क्रीडायाः प्रथम क्रीडायां इंग्लैंड देशस्य पुरतः भारतेन 170+300 अंकस्य लक्ष्यं स्थापितम् इति वार्ताः।